ॐ श्री गणेशाय नमः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्ति। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनि। सर्वेभ्यो नमः। अस्माकं वर्गे सर्वेषां स्वागतम्। गतवर्गे वयं नूतनभागस्य उद्घाटनं कृतवन्तः। तत्र उपपद्यविभक्तयः इति विषयः अस्माकं विषयः। गतवर्गे प्रथमपुटे तत्र उदाहरणवाक्यानि दृष्टवन्तः। तत्र प्रति, सह, विना, पूर्वं, सदृशः, अलं, परम् इति पदानि आसन्। इदानीं तत्र एतेषां पदानां नियमाः के, अपि तत्र किं किं मनसि स्थापितव्यं तेषां प्रयोगे इति अद्य पश्यामः। अस्तु, तर्हि तत्र अग्रिमे पुटे, तत्र प्रथमपुटं कृतवन्तः, पठितवन्तः गतवर्गे। इदानीं द्वितीये पुटे तत्र अवधेयम् इति अस्ति, तत् पठित्वा तत्र प्रत्येकस्य अव्ययस्य उदाहरणवाक्यानि सन्ति, तामपि पठामः। सर्वम् अव्ययमिति नास्ति, किन्तु आधिक्येन अव्ययमेव अस्ति इति मन्ये। अस्तु, तर्हि तत्र नरेश महोदय आरम्भं करोति वा महोदय, अवधेयम् इति द्वितीये पुटे।
आं महोदय, अवधेयं गीतासोपानस्य प्रथमभागे वयं सह, विना, पुरतः इत्येतादृशानां पदानां प्रयोगं यातवन्तः। तेषां प्रयोगे का विभक्तिः भवति इत्यपि यातवन्तः। अस्मिन् पाठे अन्येषां केषाञ्चित् पदानां प्रयोगं जानीमः।
पूर्वमेव वयं किं किं दृष्टवन्तः तत्र,
सः, विना, पुरतः
इति तेषाम् इति एतादृशानां पदानां प्रयोगं ज्ञातवन्तः, दृष्टवन्तः। इदानीं तत्र तस्मिन् समये तत्र प्रयोगे का विभक्तिः अपेक्षितः, का विभक्तिः भवति इति तदपि वयं ज्ञातवन्तः तस्मिन् सन्दर्भे। इदानीम् अग्रे अस्मिन् पाठे वयं किं कुर्मः तत्र, अन्येषां केषाञ्चित् केषाञ्चन पदानां प्रयोगं जानीमः। केचन नूतन केचनानि हा तत्र कानिचन नूतनपदानि पदानि सन्ति, तेषां प्रयोगमपि इदानीं ज्ञास्यामः। अस्तु, अग्रे पठतु महोदय। प्रति इति
प्रति सञ्जयः धृतराष्ट्रं प्रति अवदत्। अर्जुनः कौरवसेनां प्रति सङ्केतं कृतवान्। छात्रः गुरुं प्रति पृष्टवान्। प्रति इति पदस्य योगे द्वितीया विभक्तिः भवति।
द्वितीया विभक्तिः भवति, समीचीनम्। हा, अत्र किमस्ति, तत्र वयं दृष्टवन्तः तत्र उपपदविभक्तिः इति नूतनविषयः। तत्र उपपदविभक्तिः इत्युक्ते तत्र विभक्तिरूपं वाक्ये एकं पदम् अस्ति, तत् पदं प्रथमाविभक्तिरूपेण नास्ति, किन्तु तत्र द्वितीयविभक्त्यन्तं वा तृतीयाविभक्त्यन्तं वा भवति। अतः अस्माकं प्रश्नः तस्मिन् सन्दर्भे भवति, एतस्याः विभक् विभक्त्याः कारणं किम्? क्रियापदं कारणं वा अथवा अन्यत् किमपि कारणम् अस्ति वा इति. अत्र प्रथमे पुटे वयं दृष्टवन्तः तत्र देवालयं प्रति गच्छामि इति. तत्र देवालयम् इति अस्ति इति इति पदस्य द्वितीयविभक्तिः रूपस्य कारणं प्रति इति पदं, न तु गच्छामि इति क्रियापदम्. अत्र वयम् उक्तवन्तः तत्र किम् अस्ति, देवालयम् इति पदस्य साक्षात् सम्बन्धः क्रियापदेन नास्ति, किन्तु प्रति इति पदेन सम्बन्ध साक्षात् सम्बन्धः अस्ति. प्रति इति पदस्य अस्तित्वेन देवालयम् इति रूपं तत्र भवति, द्वितीयाविभक्तिरूपम्. अतः तत्र इदानीं नरेशमहोदय उक्तवान् तत्र प्रति इति पदस्य योगे द्वितीयाविभक्तिः भवति. तत्र उपपदविभक्तिः इत्युक्ते तत्र प्रति इति पदमस्ति तेन कारणेन तस्य पूर्वपदस्य विभक्तिरूपं द्वितीया विभक्त्यन्तं भवति. अतः तत्र देवालयं प्रति गच्छामि, प्रति पूर्वपदं देवालयं, तद्भवति द्वितीयाविभक्तिरूपम् इति. अस्तु, इदानीं तत्र उषा भगिनी, इदानीं तत्र उदाहरणे तत्र गच्छति इति अस्ति वा क्रियापदम्, अथवा अगच्छत् इति क्रियापदम् अस्ति वा प्रति इति विषयस्य?
कुत्र महोदय देवालयं प्रति गच्छामि?
न न, प्रति इति यत् नरेश महोदय पठितवान्, यानि वाक्यानि नरेश महोदय पठितवान् प्रति इति विषये, तत्र गच्छति इति अस्ति वा तत्र?
न महोदय.
हा, तत्र किं किम् अस्ति क्रियापदं, किम् अस्ति तत्र प्रथमवाक्ये सञ्जयः इति वाक्ये? तत्र
सञ्जयः धृतराष्ट्रं प्रति अवदत् इति अस्ति. धृतराष्ट्रं प्रति अवदत् इति क्रियापदम् अस्ति.
गच्छति इति नास्ति, अवदत् इति क्रियापदम् अस्ति.
धृतराष्ट्रम् इति कर्मपदम् अस्ति.
न न न, इदानीं मास्तु. हा, तत्र केवलं क्रियापदम् इति चिन्तनं कुर्मः. तत्र अवदत् इति क्रियापदम् अस्ति.
द्वितीयवाक्ये कृतवान् इति अस्ति,
कृतवान् इति अस्ति. तृतीये वाक्ये
पृष्टवान् इति अस्ति, क्रिया
पृष्टवान् इति अस्ति, किन्तु गच्छति इति नास्ति.
न महोदय.
हा, अतः तत्र अत्र अपि एकः विषयः अस्ति. प्रथमविषयः अस्ति किं, प्रति अस्ति चेत् प्रति इति पदस्य अस्तित्वेन तस्य पूर्वपदस्य विभक्ति का?
द्वितीयविभक्ति.
हा, द्वितीयविभक्तिरूपं. तत्र प्रति सञ्जय इति वाक्ये तत्र प्रति इति पदस्य पदात् पूर्वं किं पदमस्ति?
कर्मपदम् अस्ति,
द्वितीया. हा, अतः केवलं किं पदम् अस्ति इति वदतु भगिनी. हा, तत्र किमस्ति? न न, किं पदम् अस्ति, साक्षात् पदं किम् अस्ति प्रति इति
पूर्वं? महोदय,
हा, पूर्वं
धृतराष्ट्रम् इति अस्ति.
हा, धृतराष्ट्रम् इति अस्ति. तद् द्वितीयविभक्ति तत्र तस्य पदस्य विभक्ति का?
धृतराष्ट्रम् इति द्वितीयविभक्ति अस्ति.
अस्तु, हा, द्वितीयविभक्त अस्ति खलु तत् पदम्?
आं महोदय.
हा, किन्तु तस्य कारणं किम् अस्ति, किमर्थं तु द्वितीयविभक्त्यन्तम् अस्ति तत् पदम्?
धृतराष्ट्रं दृष्ट्वा एव.
हा, किन्तु तत्र, हा, इदानीं तत्र नियमः तत्र यत् नरेश महोदय पठितवान् तत्र प्रति इति पदस्य योगे द्वितीयाविभक्तिः भवति इति अस्ति. अतः तत्र प्रति इति अस्ति अस्मिन् वाक्ये. कुत्र द्वितीयविभक्तिपदं भवति?
प्रति इति पदस्य पूर्वं भवति.
पूर्वं भवति, तत् पदं किम्?
कर्मपदम्.
न न, तत् पदम् अस्मिन् वाक्ये तत् पदं किम्?
धृतराष्ट्रं.
धृतराष्ट्रम्. अतः कारणं किम् अस्ति, किमर्थम् एतत् पदं धृतराष्ट्रम् इति द्वितीयविभक्त्यन्तम् अस्ति?
प्रति इति
अस्ति, प्रति इति पदम् अस्ति इति कृत्वा इति कृत्वा तद् रुद्राष्टम् इति रूपम् अस्ति,
न
तु अवदत् इति क्रियापदात्. अतः
सम्बन्धः कर्मपदं स्वीकृत्य प्रति आगच्छति तत्र.
हा, किन्तु तत् कर्मपदम् इति न वदामः. कर्मपदम् अत्र, अतः भवती यत् उक्तवती समीचीनमेव. तत्र वयम् एतावत् अस्माकं चिन्तनं किम् अस्ति, द्वितीयाविभक्ति इति वदामश्चेत् तत् कर्मपदं, कर्मपदम् इति वदामश्चेत् वयं चिन्तयामः तत् द्वितीयाविभक्त्यन्तं, खलु?
आं महोदय.
किन्तु इदानीं तस्य किञ्चित् परिवर्तनं करणीयमस्ति, यतोहि एतावत् यत् भवती उक्तवती तदेव अस्माकं चिन्तनम् आसीत्. किन्तु इदानीं प्रति इति अस्ति चेत् प्रति इति पदस्य कारणेन द्वितीयाविभक्त्यन्तमपि भवितुम् अर्हति. अतः द्वितीयाविभक्त्यन्तं पदम् अस्ति चेत् तत्र क्रियापदं कारणं नास्ति, किन्तु प्रति इति पदं कारणम् अस्ति. धृतराष्ट्रं किमर्थं द्वितीयविभक्ति रूपं, तस्य विभक्ति द्वितीया इत्युक्ते प्रतीति अस्ति. अतः तत्र केवलम् इदानीम् अग्रे गत्वा तत्र किं भवति, अस्माकं चिन्तनस्य परिवर्तनं, किञ्चित् परिवर्तनं भवति. तत्र रूपं दृष्ट्वा प्रथमतया वयं पृच्छामः, अस्तु विभक्ति का अस्य पदस्य, द्वितीया विभक्ति अस्तु, अतः एतत् क्रियापदं वा न वा इति इदानीं नूतनप्रश्नः आगच्छति. अत्र अस्मिन् तत्र वाक्ये प्रति नास्ति चेत् प्रायशः, अथवा प्रति इति सादृशः तादृशं पदं किमपि नास्ति चेत् वयं चिन्तयामः, अस्तु एतत् प्रायशः क्रियापदम् एव अस्ति, अस्तु क्रियापदं वा इति तत् परिशीलयामः.
सम्बन्धः कर्मपदम् अपि च प्रति इति चिन्तनीयं कुर्मः, न तु क्रियापदस्य. तत्र
एतावत् किम् अस्ति, कर्मपदम् अस्ति, अतः द्वितीयविभक्तिरूपं, द्वितीयविभक्तिरूपम् अतः कर्मपदम्. किन्तु इदानीं तादृशं चिन्तनं मास्तु. इदानीं तत्र अवदत् सञ्जयः, अवदत् सञ्जयः वाक्यम् अवदत् इत्युक्ते तत्र वयं चिन्तयामः, ओ अस्तु तत् कर्मपदं, वाक्यम् अवदत्, वाक्यं कर्मपदं भवति. किन्तु धृतराष्ट्रम् अवदत् इति अस्ति चेत् तत् कर्मपदं न भवति, खलु?
आं महोदय.
हा, अतः धृतराष्ट्रं प्रति एतद् अवदत्, एतद् वाक्यम् अवदत्, तत्र वयं जानीमः. अस्तु यत् वाक्यं सः उक्तवान्
प्रति नास्ति चेत् वाक्यम् असमीचीनम् अस्ति न महोदय?
प्रति अस्ति, हा, नास्ति चेत् वाक्यम् असमीचीनं भवति. न, तत्र किं भवति, तत्र यदि सञ्जयः धृतराष्ट्रम् अवदत् इति अस्ति चेत् वयं किं चिन्तयामः, धृतराष्ट्रं किं भवति, तत्र कोर्ट् मध्ये स्थापनीयमस्ति. सः साक्षात् किम् उक्तवान् इत्युक्ते, सः साक्षात् धृतराष्ट्रम् इति पदम् उक्तवान्, न तु धृतराष्ट्रं प्रति उक्तवान्. धृतराष्ट्रम् इति तत् पदम् उक्तवान्. यथा तत्र वयं चिन्तयामः, खलु, दशरथः राम इति वदति चेत् वयं जानीमः तत्र रामं प्रति न उक्तवान्, किन्तु राम इति साक्षात् पदम् उक्तवान्. तादृशः तत्र यदि तत्र प्रति नास्ति चेत् सञ्जयः धृतराष्ट्रम् अवदत् इत्युक्ते साक्षात् पदं यत् सः उक्तवान् तदस्ति धृतराष्ट्रम् इति. अतः तत्र अवदत् इति अस्ति, सकर्मकः भवति, किन्तु अत्र धृतराष्ट्रम् इति कर्मपदं नास्ति, प्रति अस्ति, अतः प्रति इति पदस्य कारणेन धृतराष्ट्रम् इति रूपं भवति. अतः अत्र नूतनविषयः अस्ति उपपदविभक्तिः. एतद् एषा विभक्ति नूतना अस्ति, तस्याः नाम अस्ति उपपदविभक्तिः. यत्र द्वितीयाविभक्त्यन्तं कर्मपदरूपेण भवति तत्र वयं वदामः तत् कारकविभक्तिः इति.
कारकविभक्तिः
अत्र अस्ति उपपदविभक्तिः इति. कारकविभक्तिः क्रियापद तत्र कारणम् अस्ति, विभक्तेः कारणम् अस्ति क्रियापदम्. अत्र विभक्तेः कारणं क्रियापदं नास्ति, अतः प्रति इति पदं कारणमस्ति, अतः एत एषा विभक्ति उपपदविभक्तिः. अत्र केवलं गच्छति गमनक्रिया इति एव कोऽपि नियमः नास्ति, गमनक्रिया एव भवति इति कोऽपि नियमः नास्ति. तत्र पृष्टवान् इति दृष्टवान् अवदत् सर्वमस्ति, अतः तत्र सङ्केतं कृतवान्, कौरवसेनां प्रति सङ्केतं कृतवान्, छात्रः गुरुं प्रति पृष्टवान् इति अस्ति तत्र. अतः केवलं सः ग्रामं प्रति गच्छति इति नास्ति, केवलं तद् नास्ति, तदपि कर्तुं शक्नुमः, किन्तु अन्यत् वाक्यमपि कर्तुं शक्नुमः यत्र क्रियापदं तत्र पृच्छति वा पश्यति वा अवदत् वा वदति वा इति सर्वं भविष्यति. अस्तु, श्रीप्रिया भगिनी नमस्कारः, वंशीसुधा भगिनी नमस्कारः, ललिता भगिनी नमस्कारः.
कुत्र कुत्र आगच्छति इति नियमः अस्ति वा महोदय?
न न, तत्र नियमः नास्ति. तत्र एकं तु
नमस्कारः महोदय.
नमस्कारः भगिनी. एकं तु वक्तुं शक्नुमः भगिनी, तत्र तत्र धृतराष्ट्रं प्रति अथवा ग्रामं प्रति अथवा देवालयं प्रति कौरवसेनां प्रति गुरुं प्रति इति यत्र तत्र प्रति इति किं सूचयति इत्युक्ते, प्रति इति पदं लक्षणं सूचयति. तं प्रति लक्षणम् इत्युक्ते किं,
लैक् ओन्ली टु वर्ड्स्?
तत्र एम् इति वदामः, तत्र लक्षणम्, अतः लक्षणार्थे इति वदामः. अबौट् तत्र तस्य सः बहु किमपि उक्तवान्, तस्य यत् उक्तवान् तस्य लक्षणं किं, वाट् वास् हि टाकिङ्ग् अबौट् इति तत्र. अतः तत्र लक्षणम् इति तत्र धृतराष्ट्रं भवति लक्षणं. तं प्रति सञ्जयः अवदत्. अर्जुनः, अर्जुन इति वाक्ये अपि छात्रः
गुरुं प्रति
पृष्टवान् इति. तत्र तत्र पृच्छति इति तत्र अपि तत्र किञ्चित् क्लेशः भवति, किन्तु इदानीं मास्तु, यतोहि तत्र पृच्छति इति द्विकर्मकक्रियापदम् अस्ति. तत्र छात्रः गुरुं प्रश्नं पृच्छति, तदपि कर्तुं शक्नुमः. किन्तु अत्र गुरुमिति अस्ति, किन्तु तत् कर्मपदं भवति, किन्तु अस्मिन् वाक्ये कर्मपदं नास्ति, प्रति इति कारणेन गुरुमिति रूपं भवति अत्र. अतः एतत् एषा विभक्ति उपपदविभक्ति, न तु कारकविभक्तिः.
अस्तु महोदय, अन्य एकः प्रश्नः. लङ् लकार अथवा तवतु प्रत्यये एव भवति वा?
न न न, सर्वे तत्र सर्वेषु लकारेषु कर्तुं शक्नुमः. अतः केवलं लक्षणार्थे इति चिन्तयतु, किन्तु क्रियापदं सर्वेषु लकारेषु कर्तुं शक्नुमः. अस्तु, तर्हि अग्रे गच्छामः. लक्ष्मी भगिनी अग्रे, इदानीं तत्र धिक् इति अस्ति.
अस्तु महोदय, दिक् त्वां, दिक् कौरवान्, दिक् पापिनम्. दिक् इति पदस्य योगे द्वितीया विभक्तिः भवति.
तत्र दिक् इत्युक्ते
दिक्
दिक्कारः
निन्दकारः
इति निन्दा निन्दार्थे निन्दार्थे तत्र पूर्वमासीत् लक्षणार्थे, एतदस्ति निन्दार्थे. तत्र दिक् इत्युक्ते अनादरः, अवमाननम्, एतत् सर्वं सूचयति दिक् इति. तत्र दिक् अस्ति चेदपि तत्र किं भवति, द्वितीया विभक्तिरूपं
भवति.
किन्तु तत्र भेदः अस्ति वा, प्रति इति पदम् अस्ति चेदपि तत्रापि द्वितीया विभक्तिः भवति, अत्रापि द्वितीया विभक्तिः भवति, किन्तु कः भेदः? दिक् अपि अव्ययम् इति मन्ये, प्रति अपि अव्ययमेव, किन्तु तत्र कस्य पदस्य द्वितीयविभक्तिरूपं भवति?
दिक् योगे द्वितीयविभक्तिः भवति,
द्वितीयविभक्तिः भवति, किन्तु कस्य पदस्य द्वितीयविभक्तिरूपं भवति? तत्र प्रति अस्ति चेत् तत्र सञ्जयः धृतराष्ट्रं प्रति अवदत्, इदानीं तत्र रूपम् अस्ति दिक् त्वाम् इति अस्ति
परपदम्,
हा परपदं न तु पूर्वपदं, खलु लक्ष्मी भगिनी? हा तत्र प्रति प्रति इति स्थाने पूर्वपदं, दिक् इति स्थाने परपदं, दिक् अनन्तरं यत् पदं भवति तस्य पदस्य द्वितीयविभक्तिरूपम्। अतः तत्र दिक् कौरवान्, दिक् त्वां, दिक् पापिनम् इति निन्दा, निन्दा निन्दा कर यदि इच्छामः, कर्तुम् इच्छामः तस्मिन् समये एतस्य पदस्य प्रयोगः भवति निन्दा।
महोदय धिक्कारः अपि,
धिक्कारः इति भिन्नमस्ति, धिक्कारः हा धिक्कारः धिक्कारः इति पदमस्ति, किन्तु अत्र धिक् इति कं प्रति दिक् इति अतः तत्र कौरवान् कौरवान् प्रति धिक्कारः भवतु इति यदि वक्तुम् इच्छामः तत्र दिक् कौरवान् इति वदामः। अस्तु तर्हि अस्तु अग्रे अलम् इति अस्ति तत्र, हा श्रीप्रिया भगिनी अलम् इति वदति वा? शुभदा भगिनी नमस्कारः।
नमस्कारः महोदय, क्षम्यतां विलम्बेन आगतवती।
हा चिन्ता मास्तु भगिनी, भवती उक्तवती, चिन्ता मास्तु। अस्तु
अलम्, अलम् विषादेन अलम् कुदृष्ट्याम् अलम् कार्पण्येन
वदतु भगिनी।
अलम् अलम् इति पर्याप्त्यर्थे अपि प्रयुज्यते, तत्र तु चतुर्थी विभक्तिः एव भवति। उदाहरणं भीमः दुर्योधनाय अलम्, भीमः दुर्योधनस्य विग्रहेण समर्थः इत्यर्थः।
हा अतः तत्र किं कुर्मः भगिनि, तत्र प्रथमतया तृतीयाविभक्तिरूपं पश्यामः, तदनन्तरं चतुर्थीविभक्तिरूपं पश्यामः। अत्र तृतीयविभक्ति यत्र भवति तत्र किम् अस्ति, अलं विषादेन, तत्र किं भवति?
अलं विषादेन, अलम् इति अव्ययम् अस्ति, विषादेन तस्मिन् पदस्य पदात् परम् आगच्छति विषादेन इति।
हा विषादेन इति पदात् पूर्वम् अलम् इति अस्ति, अलं पदात् परं विषादेन इति अस्ति, तृतीयविभक्त्यन्तम् अस्ति, तत्र अलम् इत्युक्ते तद् मास्तु अथवा तद् मास्तु इति मास्तु इति, तत्र अलं निद्रया अथवा तत्र अथवा तादृशं वदामः, तत्र तृतीयविभक्त्यन्तं भवति यत्र मास्तु इति वक्तुम् इच्छामः। तत्र कृपण कार्पण्येन, कृपणः इत्युक्ते असमीचीनम् इति अस्ति, कृपण इति तत्र तस्य भावः अस्ति कार्पण्यम्, कार्पण्यम् इति भावः, अतः तत्र असमीचीनम्, अतः अलं तत् मास्तु, तादृशभावः मास्तु इति, अतः अलं कार्पण्येन इति। तत्र तृतीयाविभक्त्यन्तं भवति, अत्र तृतीयाविभक्तेः कारणम् अस्ति अलम् इति पदं, न तु क्रियापदम्, अत्र क्रियापदम् एव नास्ति खलु, तत्र केवलम् अलं विषादेन इति अस्ति, तत्र क्रियापदं नास्ति, क्रियापदमपि न स्थापितुं शक्नुमः, तत्र अलं विषादेन अस्ति इति न वक्तुं शक्नुमः खलु, तत्र केवलम् अलं विषादेन एव वाक्यं भवति। अतः तत्र विषादेन इति तृतीयविभक्तेः कारणम् अस्ति अलम् इति पदं, न तु क्रियापदम्, अतः तत् भवति उपपदविभक्तिः इति। इदानीं तत्र अलम् इति पदस्य प्रयोगद्वयम् अस्ति, प्रथमे प्रयोगे तत्र विभक्तिः भवति तृतीया, द्वितीये प्रयोगे विभक्तिः भवति चतुर्थी। इदानीं तत्र तत्र विभक्तिभेदेन अर्थभेदः भवति, अतः तत्र महत्वम् अस्ति, केवलम् अलम् इति दृष्ट्वा न चिन्तितुं शक्नुमः, अस्तु अस्तु अहम् अवगच्छामि तत्र अग्रे किं भवति इति, न अलम् इति पदम् अस्ति चेत् तत्र किं प्रष्टव्यम्, अनन्तरपदस्य विभक्ति का इति. अलम् इति पदस्य अनन्तरं यत् पदं भवति तस्य विभक्ति तृतीया अस्ति चेत् तत्र अर्थः अस्ति मास्तु. हा इदानीं तत्र पुनः तत्र सूचना इति अस्ति या अस्ति तां सूचनां पुनरेकवारं पठतु भगिनि.
सूचना अलम् इति पर्याप्त्यर्थे अपि प्रयुज्यते. तत्र तु चतुर्थी विभक्तिः एव भवति. उदाहरणार्थं भीमः दुर्योधनाय अलम्. भीमः दुर्योधनस्य निग्रहणे समर्थः इत्यर्थः.
हा इदानीं तत्र अर्थः कः? इदानीं दुर्योधनाय अलम् इत्युक्ते
सदृशः. ओ सदृशः अग्रे अस्ति.
तत्र भीमः दुर्योधनाय अलम् इति अस्ति चेत् तत्र वाक्यस्य अर्थः कः?
सः एव पर्याप्तम् इति अर्थः.
अतः तत्र दुर्योधनस्य निग्रहणे समर्थः इत्यर्थः. तत्र अपेक्षया इति उपयुज्य वाक्यं कर्तुं शक्नुमः वा अत्र?
भीमस्य अपेक्षया इति कर्तुं
शक्नुमः. अस्तु, भीमस्य अपेक्षया इति वाक्यं वदतु. अस्तु,
क्षम्यतां महोदय, दुर्योधनस्य अपेक्षया
भीमः शक्तिमान् शक्तिमान् इति शक्तिमान् इति मन्ये भगिनि.
शक्तिमान् अस्ति.
अतः तत्र भीमः दुर्योधनस्य निग्रहणे समर्थः अथवा भीमः दुर्योधनाय अलम् इत्युक्ते तत्र हि सफिशियन्ट् टु हेण्डल् इति वदामः खलु तादृश तत्र पर्याप्त्यर्थे इति भीमः दुर्योधनाय अलम् इति. तत्र अग्रे यत् वाक्यमस्ति तत्र
महोदय एकः संशयः अस्ति. यदि यदि कोऽपि मोबैल् पश्यन् अस्ति चेत् अहं कथं वदामः अलं पश्येन वा
दर्शनेन?
दर्शनेन इति साधु वा वाक्यम्?
अलं दर्शनेन बहुवारं वक्तव्यमस्ति अस्मिन् अलं दर्शनेन.
महोदय अलं कुरु अपि असमीचीनं न महोदय?
अलं कुरु इति न वक्तुं शक्नुमः भगिनि.
कथं
कार्येण अलं कार्येण
विपरीतार्थ भवति किल
किम्
अलं कुरु इति वक्तव्यं?
सत्यं सत्यं तत्र मा कुरु इति भवति. अतः तत्र अतः अलं कार्येण इति प्रायशः वक्तुं शक्नुमः.
तत् समीचीनं
अलं कार्येण इति. अस्तु तत्र यत् यत्किमपि पदं स्थापयामः तत्र तृतीया वा चतुर्थी वा भवेत् तावदेव. अतः तत्र क्रियापदं स्थापितुम् इच्छामश्चेत् तत्र क्रियापदस्य तत्र पठति इति स्थाने पठनम् इति रूपं स्वीकृत्य तस्य पदस्य तृतीयविभक्त्यन्तं स्थापितुं शक्नुमः तत्र तावदेव.
महोदय तत्र द्वितीय द्विवचने अपि बहुवचने रूपाणि सन्ति. तत्र अलं कार्येण
समीचीनमेव. तत्र एकवचने एव भवेत् इति नास्ति खलु भगिनि. अत्र चिन्तयतु, तत्र जनाः अनेकानि कार्याणि कुर्वन्ति किन्तु सर्वाणि कार्याणि समीचीनानि न सन्ति इति तस्मिन् सन्दर्भे अलं कार्यैः इति. तत्र नियमः नास्ति इति मन्ये भगिनि. तत्र एकवचने एव भवेत् इति नास्ति, किन्तु उदाहरणं न दृष्टवन्तः. प्रायशः अग्रे भवति न वा इति न जानामि, न स्मरामि, किन्तु एकवचने एव भवेत् इति नास्ति, कोऽपि नियमः नास्ति इति मन्ये भगिनि. अस्तु अग्रे तत्र वेदा भगिनी इदानीं तत्र चतुर्थी विभक्तिरूपं तत्र किञ्चित् पठति वा भगिनि?
सदृश
सदृश मया सदृशः अन्यः कः अस्ति द्रौपद्या सदृशी महिला विरला कुरुक्षेत्रं नरकेण सदृशं जातं ज्ञानवानपि स्वस्याः प्रकृतेः सदृशं चेष्टते सो मया तुल्यार्थकस्य सदृशशब्दस्य योगे तृतीया विभक्तिः भवति तुल्यार्थकस्य तुल्यार्थकभावे सदृशशब्दस्य उपयोगं कर्तुं शक्नुमः
इदानीं तत्र मया सदृशः अन्यः कः अस्ति तत्र तृतीयविभक्तिपदं कुत्र
मया
तत् पूर्वपदं वा परपदं पूर्वपदं पूर्वपदं सदृशः यत्र अस्ति तस्य पूर्वपदं तृतीयविभक्त्यन्तम् अस्ति
सदृशस्य विभक्ति अपि
भवति 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 तत् विशेषणम् अस्ति अतः तत्र यदि भवति एतद् वाक्यं वदति चेत् भवति तत्र परिवर्त्य वदति पुरुषः यदि पुरुषः वदति एतत् वाक्यं समीचीनम् अस्ति महिला वदति चेत् रूपं किं भवति किञ्चित् परिवर्त्य वदतु
एकनिमिषं मया
वाक्यं प्रथमवाक्यं
मया किं वदति
द्वितीयवाक्यं दृष्ट्वा प्रथमवाक्यस्य परिवर्तनं करोतु महिला वदति इदानीं किन्तु केवलं मया एव मया आरभ्यः
द्रौपद्या
न अस्तु अस्तु वेद भगिनि तत्र मया सदृशः अन्यः कः अस्ति इति तत् पुरुषः वदति वा महिला वदति वा एतद् वाक्यं पुरुषः एव खलु इदानीं तदेव वाक्यं तस्मिन्नेव अर्थे यदि महिला वदति चेत् रूपं किम् इति प्रश्नः
महिला वदति चेत् मया सदृशा अन्य
द्वितीयवाक्यं पश्यतु तत्र सदृशः इति स्थाने किं भवति
सदृशी
अतः मया सदृशी
अन्या का अस्ति
समीचीनं भगिनि मया सदृशी अन्या का अस्ति सदृशः सदृशी अन्यः स्थाने अन्या का अस्ति इदानीं तत्र इदानीं बहुवचने रूपं किं भवति सदृशाः इति चिन्तयामः तत्र मया इति स्थाने किं भवति
अस्माभिः
सदृशाः
अन्याः वा
अन्ये
माया सदृशाः अन्ये कः के सन्ति
के सन्ति इदानीं तत्र स्त्रीलिङ्गे
अस्माभिः सदृशी
सदृशी अस्ति चेत् सदृशी इति पदस्य बहुवचनं नदी नद्यौ नद्यः नद्यः
सदृश्यः
अन्याः
काः
सन्ति इति अस्तु समीचीनम् अतः इदानीं जानीमः तत्र तृतीयविभक्ति कुत्र भवति अपि तत्र सदृशः तत्र मया इति अस्ति सदृशः अस्ति तत्र अन्यः कः अस्ति इति तत्र अस्ति इति सम्बन्धः कः अस्ति इति भवति किन्तु मया इति कुत्र भवति तत्र सम्बन्धः कुत्र अस्ति चेत् तत्र कः अन्यः कः इति सदृशः अन्यः कः इति तत्र तत्र सम्बन्धः अस्ति नास्तु न तु क्रियापदेन अतः तत्र मया सदृशः इति स्थापितमस्ति अतः मया इति तृतीयविभक्त्यन्तम् अस्ति अतः एषा विभक्ति एषः प्रयोगः अपि उपपदविभक्तिः
सदृशः अत्र विशेषण रूपम् अस्ति
विशेषणम् अस्ति अतः तत्र अन्यः कः अस्ति मया सदृशः इदानीं द्वितीयवाक्यं द्रौपद्या सदृशी
द्रौपद्या स्त्रीलिङ्ग् अस्ति तत्कारणेन सदृशी
तेन कारणेन
द्रौपद्या सदृशी महिला विरला
विरला विरला तत्र सुलभतया तादृशी महिला न लभ्यते न दृश्यते हा द्रौपद्या सदृशी महिला विरला लोके
कुरुक्षेत्रं नरकेण सदृशं जातम् अत्र नपुंसकलिङ्ग अस्ति तत्कारणेन सदृशम् एवं
तत्र तत् कारणेन इति नास्ति भगिनि तेन कारणेन कुरुक्षेत्रम् इति नपुंसकलिङ्गे अस्ति अतः सदृशम् इति विशेषणं भवति अतः कुरुक्षेत्रं सदृशं जातं कुरुक्षेण सदृशं जातं किन्तु केन जातं केन कुरुक्षेत्रं सदृशं जातम् इत्युक्ते नरकेन कुरुक्षेत्रं सदृशं जातं तत्र तत्र किं वक्तुं शक्नुमः तत्र एकम् अस्ति यत् साक्षात् कर्तृपदम् अस्ति वाक्ये तस्य सदृशः अथवा सदृशी अथवा सदृशम् अन्यत् यत् अस्ति तत् कर्तृपदं नास्ति यद्यपि सदृशः अथवा सदृशी अस्ति किन्तु तत् कर्तृपदं नास्ति किन्तु तत्र तृतीयाविभक्त्यन्तं पदं तत्र भवति
महोदय एकः प्रश्नः अस्ति सदृशः सदृशी एव तत्सर्वे कर्ता कर्तृपदं पश्यन्ति
सत्यं भगिनि कर्तृपदस्य विशेषणम् अस्ति तत्र
कुरुक्षेत्रं नरकेन सदृशं तत्र नरकम् इति पदस्य विशेषणमस्ति न सदृशं
न न अतः अतः अस्तु अस्तु समीचीनप्रश्नः भगिनि अस्तु इदानीं तत्र किं कुर्मः द्वितीयवाक्यं पश्यामः तत्र विरला इति अस्ति खलु अन्ते विरला अनन्तरम् अस्ति इति स्थापितुं शक्नुमः खलु विरला अस्ति इदानीं तत्र तस्मिन् वाक्ये कर्तृपदं किम् अस्ति
द्रौपद्या सदृशी महिला
हा महिला इति कर्तृपदम् अस्ति इदानीं महिला इति कर्तृपदं सदृशी इति विशेषणं वा
महिला न द्रौपद्या ओ सदृशी महिला आम् आम्
सदृशी इति विशेषणमस्ति कस्य पदस्य
महिला
इति पदस्य विशेषणम् अस्ति अतः सदृशी इति कर्तृपदस्य विशेषणं भवति अतः तत्र द्रौपद्या इति रूपम् अस्ति किन्तु सदृशी इति द्रौपद्या सदृशी इति नास्ति किन्तु महिला सदृशी तत्र द्रौपद्या सदृशी महिला कया सदृशी महिला कया सदृशी महिला द्रौपद्या सदृशी महिला इदानीं तत्र कुरुक्षेत्रं सदृशं कुरुक्षेत्रं केन सदृशं
नरकेन सदृशं
नरकेन सदृशं तत्र कीदृशं कीदृशम् इति प्रश्नः भवति खलु कीदृशं कुरुक्षेत्रम् इत्युक्ते तत्र नरकेन सदृशं सदृशं कुरुक्षेत्रम् इति अतः तत्र विशेषणमिति अर्थे अस्ति किन्तु तत्र व्याकरणरूपेण पश्यामश्चेत् किञ्चित् भेदः अस्ति यतोहि तत्र तृतीयविभक्त्यन्तमस्ति न तु समानविभक्तिः सर्वम् अतः तत्र कुरुक्षेत्रं सदृशं केन सदृशं कुरुक्षेत्रं जातं
नरकेन
सदृशं कुरुक्षेत्रं जातम्
ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते प्रकृतेः तृतीया विभक्ति अस्ति तत्र प्रकृतेः
स्वस्याः प्रकृतेः
सदृशं चेष्टते ज्ञानवान् कारणेन सदृशम् आयाति वा सदृशं नपुंसकलिङ्गे ज्ञानवान् अपि स्वस्याः
तत्र प्रकृतेः इति तृतीय नास्ति किल तत्र
प्रकृतेः इति षष्ठी खलु
षष्ठी
तत्र स्वस्याः प्रकृतेः इति अस्ति, तत्र स्वस्याः इति विभक्ति
तदपि षष्टि
किमर्थं तत्र प्रकृतिः इति पदस्य विशेषणमस्ति.
परन्तु तत्र तृतीयविभक्तौ किं पदमस्ति महोदय?
न, षष्टिविभक्त्यौ अपि प्रयोगमस्ति न?
आम् आम्.
न, तत् अग्रे भवति, तत् इदानीं मास्तु. हा, तत् इदानीं मास्तु. तत्र तृतीयविभक्ति प्रायशः तत्र श्लोकस्य एकमेव खण्डं दत्तमस्ति खलु, तत्र प्रायशः अन्ये खण्डे अस्ति न वा इति द्रष्टव्यमस्ति. हा, कोऽपि दृष्ट्वा कृपया वदतु तत्र.
दत्तमस्ति महोदय, षष्टिविभक्तिः अपि भवति.
न न, तत् तत् किन्तु तत् हा, किन्तु तद्
षष्टिविभक्तिः विभक्तिः अपि भवति.
तस्य उदाहरणम्
प्रायशः तस्य एव उदाहरणम् अस्ति. अस्तु 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 इदानीं तत्र हा अस्तु, धन्यवादः. हा हा, तदेव अस्ति. अस्तु, हा अस्तु, तर्हि तत्र हा अस्तु. अतः तत्र उदाहरणं तत् दृष्ट्वा एतस्य परिशीलनं कुर्मः. अस्तु, हा अस्तु. वेदभगिनी तत्र उदाहरणमपि पठतु तत्र.
तुल्यार्थकस्य सदृशशब्दस्य योगे तृतीया विभक्तिः भवति, षष्टिविभक्तिः अपि भवति. उदाहरणं, कालिदासस्य सदृशः कविः अन्यः नास्ति. तत्र कालिदासस्य सदृश कम्पेर् टु लैक् नोबडि लैक् कालिदास, कालिदासस्य सदृशः, कालिदासस्य
सदृशः कविः नास्ति. अस्तु, हा, धन्यवादः भगिनि. इदानीं तत्र अस्तु, एतत् स्वीकृत्य तत्र
यानवान् अपि
अग्रे तत्र. शोभा भगिनी, इदानीं तत्र एतत् कुर्मः. शोभा भगिनी, तत्र यद् वाक्यत्रयं वेदा भगिनी पठितवती, तत्र मया सदृशः अन्यः कः अस्ति इति, तत्र षष्टिविभक्ति अपि स्थापितुं शक्नुमश्चेत् तत्र रूपं भवति.
अस्तु, अत्र षष्टिविभक्त्याः उदाहरणं पश्यामः चेत् स्वस्याः प्रकृतेः सदृशम् इति. अवगच्छामि अवगच्छामि महोदय.
तत्र केवलं कालिदासस्य सदृशः कविः अन्यः नास्ति इति स्वीकुर्मः.
अस्तु,
तत् सुलभवाक्यम् अस्ति.
कालिदासस्य सदृशः कविः अन्यः नास्ति. अधुना भवान् किम् उक्तवान्? मया
सदृशः अन्यः कः अस्ति इति वाक्यं स्वीकृत्य तत्र तृतीयविभक्तिरूपम् अस्ति, तस्मिन् स्थाने षष्टिं स्थापितुम्
अस्तु. मया सदृशः मया, अस्तु, तत्र मम सदृशः अन्यः कः अस्ति?
हा, मम सदृशः अन्यः कः अस्ति? स्त्रीलिङ्गे
मम सदृशी अन्या का अस्ति?
हा, मम सदृशी अन्या का अस्ति? समीचीनम्. अस्तु, द्वितीयवाक्यं.
द्रौपद्या सदृशी महिला विरला. द्रौपद्याः सदृशी महिला विरला.
विरला, अस्तु, समीचीनम्. इदानीं
कुरुक्षेत्रं नरकेण सदृशं जातं. तत्र तु कुरुक्षेत्रं नरकस्य सदृशं जातम्.
हा, इति समीचीनम्. अस्तु, अतः इदानीं किञ्चित् अवगमनं भवति खलु तत्र कथं षष्टिविभक्तिरूपं मध्ये भवति इति सर्वम्. इदानीम् अस्तु, इदानीम् अन्तिमवाक्यं पश्यामः.
अस्तु, तत्र ज्ञानवानपि तदेव किल महोदय?
सत्यं,
ज्ञानवानपि स्वस्याः प्रकृतेः सदृशं चेष्टते. तत्र षष्टिविभक्त्यां कृतं तस्य परिवर्तनं करोमि.
न न, केवलं तत्र अर्थः कः इति. तत्र
तत्र ज्ञानवान् अपि, यः ज्ञानी अस्ति सः अपि स्वस्य प्रकृतेः सदृशम् एव वर्तते. किं तत्र किमस्ति चेत् सर्वे स्वस्य प्रकृतेः सदृशम् एव परिणा वर्तन्ते. अतः तदेव यद्यपि सः ज्ञानवान् अस्ति तथापि स्वस्य प्रकृतेः सदृशम् एव चलति.
तत्र प्रकृतेः प्रकृतिम् अनुसरति इति अनुसृत्य एव अग्रे गच्छति
अथवा कार्यं करोति
ज्ञानवान् अस्ति चेदपि
तत्तु किञ्चित् क्लेशः अस्ति तत्र महोदय.
अतः एव अहं उक्तवान् भगिनि, तत्र प्रथमतया एतद् वाक्यत्रयं कुर्मः. तत्र सदृशं चेष्टते इति अस्ति. तत्र किं भवति, तत्र प्रायशः एतदस्ति भगिनि, तत्र प्रकृतेः सदृशम् इति अस्ति, किन्तु तत्र किं तत्र समानलिङ्गं नास्ति खलु?
लिङ्गं तु अस्ति, किन्तु मम क्लेशः तु अर्थे आसीत् महोदय. तत्र ज्ञानवान् अस्ति चेत् स्वस्य प्रकृतेः तत्र स्वस्य एव प्रकृतिः परिवर्तनं भवति एव. ज्ञानवान् अस्ति चेत् प्रकृतिः परिवर्तनं भवति एव, अतः सदृशं चेष्टते इति. अस्तु, अवगच्छामि.
किन्तु तत्र एकमेव तत्र वक्तव्यमस्ति, तत्र पूर्ववाक्यत्रये तत्र किम् अस्ति, सदृशः, सदृशी, सदृशम् इति अस्ति. किन्तु अत्र किम् अस्ति, सदृशं चेष्टते इति अस्ति.
किमर्थं चेत् तत्र प्रकृति स्वस्य प्रकृतेः सदृशं, तत्र प्रकृति इति अस्ति इति कृत्वा सदृशं दत्तं. तत्र प्रकृतिः इति तु स्त्रीलिङ्गे एव किल महोदय?
अतः तत्र सदृशम् इति अस्ति,
किन्तु तदृशं चेष्टते इति दत्तं.
तत्र किं भवति इति, एतत् प्रायशः भवति इति चिन्तयामि. तत्र एतावत् तत्र किम् आसीत्, तत्र सदृशी अस्ति इति एव तत्र कर्तृपदम् आसीत्, किन्तु अत्र किं रूपं स्वीकृतम् इत्युक्ते तत्र प्रकृतेः सदृशं च चेष्टते चेष्टते तत्र सदृशम् इति कर्मपदम् अस्ति अपि तत्र. अतः तत्र सदृशम् इति अस्ति, नो चेत् प्रायशः सदृशः इति भवति इति. किन्तु तत्र लिङ्गं तु भिन्नम् अस्ति खलु, तत्र प्रकृतेः इति स्त्रीलिङ्गे अस्ति.
महोदय, ज्ञानवान्
पुल्लिङ्गे
अस्ति वा?
इति सत्यं भगिनि, सत्यं. ज्ञानवान् इति पुल्लिङ्गे अस्ति, सदृशः. अतः एव अहं चिन्तितवान् तत्र प्रायशः सदृशः इति विशेषणं भवति इति. किन्तु तत्र विशेषणमस्ति चेत् समानविभक्तिः अपि भवितव्यं खलु, अतः तत्र
पूर्ववाक्ये अपि सदृशमेव दत्तं महोदय.
तत्र तु कुरुक्षेत्रं नपुंसकलिङ्गपदम्
नपुंसकलिङ्गं भवति तत्र. तत्र ज्ञानवान् इति पुंलिङ्गं, प्रकृतिः इति स्त्रीलिङ्गं,
सदृशम् इति नपुंसकलिङ्गं, सर्वाणि लिङ्गानि सन्ति अत्र. वदतु भगिनि, वदतु भगिनि,
चाट् मध्ये स्थापितवती
महोदय. यान्ति भूतानि निग्रहं किं करिष्यति, किन्तु तत्र
प्रकृतिं सदृशं चेष्टते इति अन्वयः भवितुम् अर्हति वा महोदय? प्रकृतिं सदृशं चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि इति.
किन्तु भगिनी, तत्र सदृशम् इति तत्र पुल्लिङ्गे वा नपुंसकलिङ्गे एव भवति खलु भगिनि, किन्तु प्रकृतिः तु स्त्रीलिङ्गे अस्ति. प्रकृतिः मतिशब्दवत् इति मन्ये भगिनि, अतः तत्र प्रकृतिः इति
तत्र स्त्रीलिङ्गे, स्वस्याः स्त्रीलिङ्गे अस्ति महोदय.
स्वस्याः अपि अस्ति, अतः तत्र क्लेशः एव नास्ति.
सदृशं
अस्तु, किमर्थं नास्ति इति प्रश्नः.
सत्यं भगिनि, सत्यं भगिनि. अतः तत्र किमर्थम् एतत् उदाहरणं स्थापितवन्तः इति न जानामि. अस्तु, अतः तत्र इदानीं तत्र त्यजामः अग्रे गच्छामः, किन्तु यदि कोऽपि अन्वेषणं कृत्वा किमपि प्राप्नोति कृपया वदतु।
महोदय तत्र तृतीया अपि भवितुमर्हति
किं भगिनि?
तत्र तृतीया अपि भवितुमर्हति तत्र महोदय, ज्ञानवान् अपि स्वस्येन
न न तृतीय स्त्रीलिङ्गे अस्ति भगिनि,
क्षम्यता महोदय, ज्ञानवान् अपि स्वस्या प्रकृत्या सदृशं चेष्टते अपि समीचीनं महोदय।
अस्तु भगिनि, तत्र अर्थः कः, तत्र अपि नियमः कः इदानीं तत्र तस्मिन् वाक्ये? सदृशम् इति पदमस्ति, तत्र विशेषणं भवति वा, कस्य पदस्य विशेषणम् इदानीं?
महोदय तत्र अन्वयः भवति वा, अत्र द्रौपद्याः महिला विरला, कुरुक्षेत्रं सदृशं जातं, ज्ञानवान् अपि सदृशं चेष्टते, तत्र
तत्र तादृश नास्ति इति तत् प्रायशः अङ्गीकरोमि भगिनि, किन्तु तत्र कालिदासस्य सदृशः कविः अन्यः नास्ति इति, तादृशः अपि तत्र अर्थः अत्र अस्मिन् वाक्ये भवति न वा इति क्लेशः खलु। तत्र कालिदासस्य तत्र यथा भवती उक्तवती, तत्र प्रथमवाक्यत्रयं यदस्ति तत्र प्रायशः तद् भिन्नम् अस्ति, अपि एतद् वाक्यं भिन्नम् अस्ति, अस्तु, किन्तु कालिदासस्य सदृशः कविः अन्यः नास्ति इति वाक्यं स्वीकुर्मः, तत्र कविः अन्यः नास्ति, कविः इति कर्तृपदम् अस्ति, कविः इति पदस् कर्तृपदस्य विशेषणमस्ति सदृशः, अतः तत्र सदृशः अस्ति चेत् तत्र तस्मात् पूर्वपदं षष्टिविभक्त्यन्तम्। अस्तु, किन्तु अत्र किं सदृशम् इति अस्ति, तस्य पूर्वपदं प्रकृतेः इति षष्टिविभक्त्यन्तम् अस्ति, स्वस्याः अपि तस्य विशेषणम् अस्ति, तदपि षष्टिविभक्त्यन्तम् अस्ति, किन्तु तत्र या अतः तत्र किम् अस्ति इति तत्र क्लेशः। अस्तु, किन्तु यदि कोऽपि किमपि प्राप्नोति अहमपि अन्वेषणं करोमि, पश्यामः। अस्तु, इदानीं तत्र अन्यः एकं वक्तव्यमासीत् तत्र अलम् इति विषये, तत्र अलम् इति तत्र रूपद्वयं प्रयोगद्वयं दृष्टवन्तः खलु, तत्र एकः आसीत् तृतीयविभक्त्यन्तम् अलं विषादेन, तत्र किं मास्तु इति अर्थे, अन्यः अर्थः आसीत् तत्र तत्र चतुर्थीविभक्तिरूपं तत्र पर्याप्त्यर्थे इति तत्र दत्तमस्ति। तत्र एकम् उदाहरणमस्ति, तत्र केवलम् एकमेव उदाहरणं दत्तवन्तः खलु, तत्र भीमः दुर्योधनाय अलम् इति केवलम् एकमेव उदाहरणमस्ति, तत्र अन्यत् उदाहरणमपि वक्तुं शक्नुमः, तत्र बालकः कार्याय अलम्, बालकः कार्याय अलम् इत्युक्ते तत्र सः कार्यं कर्तुं शक्नोति, तस्मिन् तादृशः शक्तिः तादृशी शक्तिः अस्ति, बालकः कार्याय अलम्, अलं कार्येण इति न, बालकः कार्याय अलम्, तत्र शक्तिः अस्ति इति स्थाने अन्यदपि स्थापितुं शक्नुमः, तत्र क्षमता अस्ति, बालकस्य कार्यं कर्तुं क्षमता अस्ति, बालकः कार्याय अलम् इति। अत्र अतः तत्र केवलम् एकमेव उदाहरणमस्ति चेत् मनसि क्लेशः भवति इति कृत्वा इदानीं तत्र द्वितीयवाक्यमपि चिन्तयन्तु, तत्र बालकः कार्याय अलं, तत्र भीमः दुर्योधनाय अलम्, इदानीं बालकः कार्याय अलम्। अस्तु
महोदय,
वदतु भगिनि।
तत्र सदृशम् इति चेष्टते इति पदस्य सम्बन्धे अस्ति किल महोदय, तत्र ज्ञानवानपि चेष्टते, ज्ञानवानपि सदृशं चेष्टते, तत्र तस्य सम्बन्धः न तु ज्ञानवान् इत्यस्य कृते अस्ति, अपि च स्वस्याः प्रकृतेः इत्यस्य कृते अपि अस्ति इति मन्ये महोदय. तत्र कालिदासस्य सदृशः, तत्र कालिदासस्य सम्बन्धः अस्ति सदृशः इत्यस्य, अतः तत्र लिङ्गस्य अनुसरणीयं लिङ्गं. कालिदासस्य कालिदास इव अस्ति सः, तत्र तु ज्ञानवान् इव नास्ति, स्वस्य प्रकृतेः, तत्र तु षष्टिविभक्तिः भवति, अतः ज्ञानवान् चेष्टते इत्यस्य सम्बन्धः एव अस्ति तत्र.
अस्तु अस्तु, अतः तत्र प्रायशः अस्तु. अत्र
कर्मपदम् इति भवति वा तत्र?
हा, कर्मपदम् इति भवति भगिनि. समीचीनम् अस्तु, इदानीं समीचीनं भगिनि, धन्यवादः. तत्र अस्तु, अत्र एतत् कुर्मः, तत्र कालिदासस्य सदृशः कविः अन्यः नास्ति इति वाक्ये तत्र गर्गी इति स्थापयामश्चेत् तत्र किं भवति?
गार्गी इति वा?
हा,
गार्ग्याः सदृशी,
न न, केवलं कविः इति एव अस्ति, अतः गार्ग्याः सदृशः कविः अन्यः नास्ति.
ओ क्षम्यतां, गार्गी इति, अस्तु, पुंलिङ्ग एव,
कविः इति, कविः इति अस्ति, तत्र कविः इति चिन्तयामः, पुल्लिङ्गम् इति चिन्तयामः, तत्र तत्र महिलाः अपि कवयः भवन्ति, किन्तु एतद् केवलम् अवगमनार्थं तत्र कविः इति पुल्लिङ्गम् इति तत्र नियमः इति स्वीकुर्मः, अतः सदृशः कविः इति तदेव भवतु इति चिन्तयामः. किन्तु तस्य पूर्वं यत्किमपि तत्र स्थापितुं शक्नुमः खलु, तत्र प्रसिद्धः कविः यदि महिला वा पुरुषः वा, तत्र तादृशः कविः नास्ति इति. अतः तत्र कालिदासस्य सदृशः कविः अन्यः नास्ति, अपि गार्ग्याः सदृशः कविः नास्ति.
किन्तु तत्र महोदय यदि स्त्रीलिङ्गं नयामः चेत् सदृशी इति भवितुम् अर्हति तत्र.
सत्यं भगिनि, सत्यं, किन्तु तत्र अस्तु, तत्र अन्यत् उदाहरणं चिन्तयामः. तत्र व्यक्तिः, व्यक्तिः इति, व्यक्तिः इति पदस्य विशेष गुणं किं? व्यक्तिः लिङ्गं किं? व्यक्तिः इति पदस्य
व्यक्तिः
स्त्रीलिङ्गपदम् अस्ति. व्यक्तिः इति स्त्रीलिङ्गपदं, नो नो, न न भगिनि, व्यक्तिः इति स्त्रीलिङ्गपदम् अस्ति. किन्तु कोऽपि पुरुषः प्रकोष्ठे आगच्छति इति चिन्तयतु, कोऽपि इदानीम् आगच्छति, पुरुषः आगच्छति, वयम् एतत् वक्तुं शक्नुमः, पुरुषः आगच्छति अथवा आगतवान् अथवा एका व्यक्तिः आगतवती इति वक्तुं शक्नुमः, समानार्थकम्.
अस्तु, आम् आम्.
अतः तत्र व्यक्तिः अस्ति चेत् केवलं पुरुषः महिला एव इति नास्ति, व्यक्तिः पुरुषः वा भवतु महिला भवतु, व्यक्तिः, एका व्यक्तिः अस्ति, सा का इत्युक्ते सा महिला भवति अथवा सा व्यक्तिः पुरुषः अपि भवितुम् अर्हति. अतः अतः तादृशपदं स्वीकुर्मः. तत्र किं भवति, तत्र सदृशी व्यक्तिः अन्या नास्ति, गार्ग्याः सदृशी व्यक्तिः अन्या नास्ति, कालिदासस्य सदृशी व्यक्तिः अन्या नास्ति.
तत्र मम सन्देहः महोदय, तत्र कालिदासस्य विषये सम्बन्धः अस्ति तत्र इति अहं मन्ये महोदय.
तत् सत्यं भगिनि, किन्तु यत्र सदृशी अथवा सदृशः भवति तत् पदमस्ति विशेषणं, कर्तृपदस्य, वाक्यस्य कर्तृपदस्य विशेषणं, न तु यत् यत् पदम् अनन्तरं स्थापयामः तस्य विशेषणं नास्ति.
कालिदासस्य सदृशी व्यक्तिः इति भवितुम् अर्हति वा महोदय?
महोदय महोदय महोदय, तत्र व्यक्तिः इति पुल्लिङ्गमपि अस्ति महोदय, पुल्लिङ्गशब्दः अपि अस्ति.
किन्तु किन्तु भगिनि, तत्र एका व्यक्तिः आगता इति एव भवति भगिनि.
आं वा,
इति यत् अहं पठितवान् तदेव अस्ति, किन्तु पश्यामः पुनः पुनः एकवारं पश्यामि. किन्तु व्यक्तिः इति तत्र स्त्रीलिङ्गे अस्ति, एका व्यक्ति आगता, पुरुषः अपि भवितुम् अर्हति तत्र.
महोदय, अहं किञ्चित् भिन्नरीत्या चिन्तयामि. कीदृशं मया सदृशः अन्य कः अस्ति? द्रौपद्या सदृशी महिला विरला. सो द्रौपदी महिला, कुरुक्षेत्रं नरकः, अपि च अहम् अन्य. सो इन् आल् दिस् देर् इस् समथिङ्ग् स्पेसिफिक्. चतुर्थे वाक्ये किमपि स्पेसिफिक् नास्ति.
किमस्ति भगिनि तत् नूतनपदमस्ति मध्ये?
ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं, परन्तु किमपि विशेषं नास्ति. लैक् द्रौपदी महिला द्वे पदे अस्ति. परन्तु अत्र चतुर्थे वाक्ये किमपि द्वितीय किमपि नास्ति, ओन्लि ज्ञानवान् अपि स्वस्याः सदृशं चेष्टते. अतः
अस्तु अस्तु, इदानीम् अवगच्छामि भवती यत् वक्तुम् इच्छति. तत्र भवती प्रायश एतत् वक्तुम् इच्छति वा? तत्र वाक्यत्रये पूर्वं यत् अस्ति वाक्यत्रयं, तत्र तुलना अस्ति, तत्र पदद्वयम् अस्ति, अथवा पुरुषद्वयं वा महिलाद्वयं वा किमपि अस्ति, तयोः मध्ये तुलना भवति. हा, किन्तु अत्र किमस्ति, केवलम् एकमेव पदमस्ति, तद् अस्ति प्रकृतिः, स्वस्याः प्रकृतिः इति. अतः तत्र सदृशम् इति अस्ति चेत् अन्यत् किं तत्र भवति? प्रायशः तत्र सदृशं कार्यं चेष्टते वा,
कार्यं वा, वर्तनं वा?
हा, किमपि. समीचीनं भगिनि, धन्यवादः. हा हा हा, तदपि समीचीनम् इति भाति भगिनि.
तृतीया विभक्त्यामपि सन्ति किल महोदय? षष्टिविभक्त्यां,
हा, किन्तु तत्रापि तृतीया स्थापितुं शक्नुमः. अर्थः यत् जानीमः एतावत् तत्र अर्थभेदः भवति, भेदः न भवति. तृतीया विभक्ति भवतु, षष्टिविभक्ति भवतु, तत्र तुलना एव भवति. अतः तत्र षष्टि, अत्र षष्टि अस्ति, किन्तु समीचीनमेव, तत्र केवलं सदृशम् अस्ति, किन्तु केन सदृशं? तत्र प्रकृतेः सदृशं, किन्तु प्रकृतेः सदृशं किम् इति प्रश्नः. अतः प्रायशः तत् समीचीनं. ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं कार्यम् अथवा आचरणं चेष्टते इति प्रायशः भवति. किन्तु तत् समीचीनम् इति मन्ये भगिनि, किन्तु अत्रापि नूतन अंशः अस्ति. कः अंशः इत्युक्ते, तत्र एतावत् तुलना मध्ये भगवद्गीतायाः श्लोकः, तदेव स्थापितमस्ति भगिनि तत्र चाट् मध्ये. पूर्णश्लोकं स्थापितम् अस्ति, अपि तत्र पदा प्रत्येकपदस्य अर्थः अपि आङ्ग्लभाषायां स्थापितमस्ति, चाट् पश्यतु तत्र. किन्तु तत्र यत् किन्तु अत्र, किन्तु अत्र सदृशम् इति अव्ययं नास्ति, तत्र विशेषणम् इति स्वीकृतम् अस्ति. तत्र प्रायशः तत्र सदृशं कार्यम् अथवा आचरणम् इति स्वीकरणीयम् इति मन्ये. अपि तत्र नूतनांशः, तत्र एकः अस्ति, सः कः इत्युक्ते, तत्र पूर्ववाक्यत्रये तत्र पुरुषद्वयम् अथवा महिलाद्वयम् अस्ति, तत्र तयोः मध्ये तुलना भवति, किन्तु अत्र किं भवति, प्रकृते प्रकृतिः इति एकम् अस्ति अथवा एका अस्ति, अन्यत् तत्र कारणं वा आचरणं वा किमपि अस्ति, अतः तत्र लिङ्गसामान्यं नास्ति अत्र. तावदेव. अतः तत्र अहम् अत्र तत्र कालिदासस्य सदृशः इति स्थाने तत्र गार्ग्याः इति तादृशप्रयत्नं कृतवन्तः, किन्तु तद् भिन्नं, किन्तु समीचीनमेव. तत्र सदृशम् अनन्तरं किमपि आवश्यकमस्ति, तद् प्रायशः अस्ति, तत्र कार्यं वा आचरणं चेष्टते किमपि भवेत्.
परन्तु महोदय, एतस्मिन् वाक्ये कालिदासस्य सदृशी व्यक्तिः अन्या नास्ति इति भवितुं शक्नोति. कालिदासस्य सदृशी व्यक्तिः
अन्या नास्ति. इति तत् अङ्गीकरोमि भगिनि. तत्र व्यक्तिः अस्ति, व्यक्तिः स्त्रीलिङ्गे अस्ति, अतः तस्य विशेषणं सदृशम् इति अस्ति चेत् तत्र सदृशी इति एव रूपं भवितव्यं. सत्यं भगिनि. अतः तत्र अस्तु, भवती इदानीं यत् वक्तुम् इच्छति, तत्र लिङ्गपरिवर्तनं केवलं कालिदासस्य किमर्थं, तत्र व्यक्तिः अपि तदपि उपयुज्य कर्तुं शक्नुमः. सत्यम्. अस्तु अस्तु, तर्हि समीचीनम्. अस्तु, इदानीम् अग्रे गच्छामः. अलं चर्चया. अस्तु, सत्यं भगिनि. अस्तु, हा अस्तु, अग्रे तत्र अरुणा भगिनी अग्रे पठति वा?
आं महोदय. ऋते संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते. कृष्णात् ऋते पाण्डवानां विजयः असाध्यः. धर्मात् ऋते धर्मराजः न जीवति. ऋते इति पदस्य योगे पञ्चमी विभक्तिः भवति. विना इत्यस्य यः अर्थः सः एव अर्थः ऋते इत्यस्यापि.
अस्तु, तत्र तत्र किञ्चित् वक्तव्यमस्ति, किन्तु तत् अग्रे कुर्मः. तत्र प्रत्येकवाक्यस्य किञ्चित् वदति वा भगिनि, अरुणा भगिनि? तत्र संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते. तत्र अर्थः कः? भगिनि,
संस्कृतज्ञानं विना गीतायाः मूलार्थं न ज्ञायते.
हा, तत्र न ज्ञातं. हा, संस्कृतज्ञानं नास्ति चेत् तत्र भगवद्गीतायाः न भवति. समीचीनम्. अस्तु, द्वितीयवाक्यं.
विना पाण्डवानां विजयः न साध्यम्.
हा, असाध्यः. असाध्यः किमर्थं पुल्लिङ्गे अस्ति?
विजयः.
हा, विजयः पुल्लिङ्गे अस्ति. अस्तु, तृतीयं.
धर्मं विना धर्मराजः न जीवति.
हा, धर्मं विना धर्मराजः न जीवति. समीचीनं भगिनि. हा, अस्तु, अतः तत्र ऋते इति पदस्य प्रायशः तत्र तत्र किम् अस्ति, तत्र किं दत्तमस्ति इत्युक्ते, तत्र विना इति अर्थे ऋते अस्ति चेत् तत्र किं चिन्तयितुं शक्नुमः, विना इति. विना, तत्र संस्कृतेन विना गीतायाः मूलार्थः न ज्ञायते. कृष्णेन विना पाण्डवानां विजयः असाध्यः. धर्मेण विना धर्मराजः न जीवति इति. अतः तत्र विना इति अर्थे एकः अर्थः, तत्र ऋते इति अर्थः विना इति. किन्तु तत्र केवलम् एकः एव अर्थः इति नास्ति, ऋते अपि विना तयोः मध्ये भेदः अपि अस्ति. तत्र विना इत्युक्ते तत्र किं वितौट् इति किन्तु ऋते अस्ति एक्सेप्ट् इति तत्र भेदः अस्ति वा विना इत्युक्ते वितौट् तत्र हा संस्कृतेन विना हा रामेण विना तत्र सीता न गच्छति हा इति तत्र किन्तु ऋते अस्ति तद् न भवति चेत् इति तत्र सर्वे गतवन्तः कृष्णस्य ऋते सर्वे गतवन्तः इत्युक्ते तत्र किं कृष्णस्य ऋते अथवा कृष्णात् ऋते सर्वे गतवन्तः सर्वे गतवन्तः केवलं कृष्णः न गतवान्
विहाय
हा विहाय इति तत्र ऋते इति अस्ति अतः तत्र ऋते इति किञ्चित् भिन्नमस्ति विना अपि तत्र सन्दर्भाः सन्ति येषु तत्र अर्थसामान्यम् अस्ति किन्तु सर्वदा सामान्यमिति न वक्तुं शक्नुमः अत्र यानि उदाहरणानि दत्तानि सन्ति तेषु तु विना इति एव अर्थः अस्ति किन्तु ऋते इति किञ्चित् भिन्नम् अस्ति हा केवलं तत् मनसि स्थापयतु तावदेव अस्तु ऋते इति किञ्चित् भिन्नं विना अपि हा किन्तु तत्र सामान्यं सामान्यसन्दर्भः अपि अस्ति अस्तु
एकं वाक्यं मास्क् ऋते मास्क् अहं कथं जानामि संस्कृत
ओ इति ऋते 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 इति अस्तु अस्तु तत्र ऋते इति अस्तु तत्र एतत् कुर्मः तत्र न न इति इति उदाहरणं स्वीकुर्मः भगिनि उदाहरणम् एतत् कुर्मः तत्र किमपि कार्यमस्ति इति चिन्तयतु कार्यस्य पञ्चभागाः सन्ति इति चिन्तयतु किमपि बृहत् कार्यमस्ति तत्र कार्यस्य पञ्चभागाः सन्ति इदानीं किम् अस्ति तत्र चत्वारः भागाः समाप्ताः चत्वारः भागाः समाप्ताः किन्तु कार्यस्य कति भागाः पञ्चभागाः अतः कार्यं समाप्तं वा न खलु कार्यस्य केवलं चत्वारः भागाः समाप्ताः अतः किन्तु कार्यं समाप्तम् इति न वक्तुं शक्नुमः किं वदामः तस्मिन् सन्दर्भे इत्युक्ते एकस्मात् भागात् ऋते सर्वं कार्यं समाप्तम् इति वदामः एकस्मात् भागात् ऋते सर्वं कार्यं समाप्तम् इति तत्र एकम् एकस्मात् भागात् विना सर्वं कार्यं समाप्तम् इति वक्तुं शक्नुमः वा न ऋते एव भवति तत्र हा अतः तत्र एकस्मात् भागात् ऋते सर्वं कार्यं समाप्तम् अतः तत्र एक्सेप्ट् इति भवति तत्र ऋते इत्युक्ते एक्सेप्ट् इति किन्तु वितौट् इति अर्थः नास्ति एक्सेप्ट् विहाय अस्तु अस्तु तर्हि अग्रे गच्छामः तत्र हा अस्तु ललिता भगिनी अग्रे पठति वा इदानीं विना इति
ज्ञानं विना जीवनं कष्टकरम् ज्ञानेन विना जीवनं कष्टकरं ज्ञानात् विना जीवनं कष्टकरम् विना इति पदस्य योगे द्वितीया तृतीया विभक्ति भवतः इति जानीमः तस्य योगे पञ्चमी विभक्तिः अपि भवति इति विशेषः.
अतः तत्र किं दत्तमस्ति, विना अस्ति चेत् तत्र
द्वितीया तृतीया द्वितीया द्वितीया वा तृतीया भवितुम् अर्हति,
पञ्चमी अपि भवितुं
पञ्चमी अपि
अर्हति. अत्र विना विना इत्युक्ते तत्र तद् नास्ति चेत् नास्ति चेत् विना ज्ञानेन विना ज्ञानं विना ज्ञानात् विना जीवनं कष्टकरं. तत्र कस्य पदस्य विभक्ति रूपं भवति तत्र, द्वितीया वा तृतीया वा पञ्चमी वा, पूर्वपदस्य वा परपदस्य वा? पूर्वपदस्य. समीचीनम्. अपि तत्र भवतः इति जानीमः, तत्र इत्युक्ते किं भवतः विभक्ति
द्विवचनमस्ति.
हा द्विवचनमस्ति, द्विवचनमस्ति. तत् नामपदं वा क्रियापदं वा किम् अस्ति तत्?
क्रिया क्रिया.
हा भवति भवतः
क्रियापदम्.
हा किं भवति तत्र, द्वितीया विभक्ति भवति द्वे स्तः इति कृत्वा तत्र विभक्ति भवतः. समीचीनं भगिनि, अस्तु. इदानीं तत्र पञ्चमे अपि स्थापितुं शक्नुमः. समीचीनम्, अस्तु. अग्रे वंशीसुधा भगिनी अग्रे पठति वा?
महोदय, तत्र भवतः इति जानीमः अस्ति, तत्र भवतः इति क्रियापदमस्ति वा?
इति भवतः, तद् सः सः आगच्छति इति जानामि.
अस्तु, परन्तु जानीमः इति बहुवचनरूपम् अस्ति, अतः भवतः इति नामपदं
न तत्र तत्र इति अस्ति चेत् इति पूर्वं पूर्णवाक्यं भवितुम् अर्हति खलु.
आं, विना इति पदस्य योगे द्वितीया द्वितीया तृतीया विभक्ति भवतः इति जानीमः. अस्तु,
वयं किं जानीमः?
अस्तु अस्तु,
एतद् भवति इति जानीमः, अथवा एतद् भवति, एतदपि भवति, अथवा एषा भवति, एषा अपि भवति.
द्विवचने अस्ति महोदय.
हा द्विवचने अस्ति. हा तत्र किञ्चित् क्लेशः भवति इति एव अतः एव अहं पृष्टवान्. समीचीनं भगिनि, धन्यवादः.
किञ्चित् क्लेशः जातः महोदय. सम्यक्
महोदय, तत्र पञ्चमी विभक्तिः अपि भवति
तदपि भवति इति विशेषः अस्ति, विशेषः अस्ति. तत्र इति अस्ति चेत् तस्य पूर्वं पूर्णवाक्यं भवति.
ओ अस्तु महोदय, सम्यक्. सप्तमं बिन्दु पठामि. सप्तमं पूर्व परं बुद्धेः परः परमात्मा इत्युक्ते बुद्धिः बुद्धेः अनन्तरं परमात्मा अस्ति इति वक्तव्यं वा? अस्तु. युद्धात् परं दुःखं भवति, युद्धात् अनन्तरं दुःखम् एव भवति इति अत्र अस्ति. ध्यानात् परं शान्तिः प्राप्यते. अस्तु, विश्वरूपदर्शनात् पूर्वम् अर्जुनः दिदृशुः आसीत्. अस्तु, दिदृशुः इत्युक्ते किं महोदय?
दिदृक्षुः इत्युक्ते तत्र विषादः, विषादः तत्र तस्य दिदृक्षा इति तत्र मुमुक्षुः
दिदृक्षुः द्रष्टुम् इच्छा.
इच्छा इच्छा
सन्नन्तपदं सन्नन्तपदमस्ति.
अस्तु, अतः तत्र अपि तत्र उपरि अपि तत्र युद्धात् पूर्वम् इति अस्ति.
युद्धात् पूर्वं कृष्णः सन्धिनिमित्तं गच्छति. पूर्वं कृष्णः. अस्तु अस्तु, साङ्ख्ययोगात् पूर्वम् अर्जुनविषादयोगः. गीतोपदेशात् परम् अर्जुनः युद्धार्थम् उत्सहते.
तत्र गीतोपदेशस्य अनन्तरम् अर्जुनः युद्धं कर्तुम्
उत्सर्ति
हा उत्साह युद्धं कर्तुम् उत्साहम् अनुभवति
आम् विश्वरूपदर्शनात् परम् अर्जुनः भीतः
हा इदानीं विश्वरूपदर्शनात् परम् अर्जुनः भीतः तस्य विश्वदर्शनदर्शनात् पूर्वम् अर्जुनः दिदृक्षुः आसीत्
पदद्वयं वक्तव्यम् इति चिन्तयामि महोदय पूर्वं परम् एतयोः पदयोः योगे पञ्चमी विभक्तिः भवति
अस्तु अतः तत्र नियमः कः पञ्चमी पञ्चमी भवति
प्रथमे वाक्ये परन्तु परः किमर्थमस्ति
हा समीचीनप्रश्नः भगिनि तत्र किमस्ति तत्र परम् अपि पूर्वम् इति तत्र किम् अस्ति तत्र रूपद्वयम् अस्ति भगिनि तत्र एकमस्ति अव्ययम् अन्यत् रूपमपि अस्ति तत्र विशेषणम् इति अतः तत्र परमात्मा इति तत्तु किमस्ति परमात्मा इति तस् पदस्य लिङ्गं किम्
परमात्मा इति
पुल्लिङ्गे
हा आत्मन् नकारान्तपदं जानीमः खलु अतः तत्र हा अतः परः परः इति भवति विशेषणं परमात्मा इति पदस्य अतः तत्र अव्ययम् इति रूपं स्वीकृतम् अव्ययम् इति न स्वीकृतं किन्तु तत्र विशेषणम् इति रूपं स्वीकृतम् अस्ति भगिनि किन्तु सर्वत्र तत्र परम् इति स्थापितुं शक्नुमः किन्तु तत्र परम् इति किम् अस्ति इत्युक्ते तत्र विशेषणं नास्ति तत् अव्ययम् अस्ति इति अतः तत्र विशेषणं नास्ति इति न किन्तु तत्र अव्ययम् इति अतः विशेषणरूपम् अपि अस्ति परम् इति पदस्य अव्ययरूपम् अपि अस्ति
अतः तत्र रूपद्वयं कथं जानामि कस्य पदस्य कुत्र उपयोगः
न तत्र विकल्पः अस्ति यद् यथेच्छा तत्र कोऽपि नियमः नास्ति तत्र बुद्धेः परं परमात्मा तदपि वक्तुं शक्यते
यदि परः अत्र अस्ति तर्हि पञ्चमीविभक्तिः उपयोगः किमर्थं महोदय यदि अव्ययमस्ति तर्हि
तत्र अस्ति चेत् तत्र योगे विशेषणरूपं वा अव्ययरूपं वा तत्र पूर्वपदस्य पञ्चमीविभक्तिरूपं भवेत् इति अतः तत्र बुद्धेः परः परमात्मा अथवा बुद्धेः परं परमात्मा द्वयमपि साधु इति तत्र पश्यतु तत्र अन्यदपि तत्र दत्तमस्ति पश्यतु तत्र दुःखं भवति शान्ति तत्र हा परं शान्तिः प्राप्यते इति अस्ति तत्र शान्तिः स्त्रीलिङ्गे अस्ति किन्तु परमेव अस्ति अपि तत्र हा विश्वरूपदर्शनात् परम् अर्जुनः भीतः तत्र अर्जुनः इति अस्ति पुल्लिङ्गे अस्ति किन्तु परः इति नास्ति खलु परम् इति अस्ति अतः तत्र हा एतद् भवति तत्र एकं रूपम् अस्ति अव्ययम् अन्यत् रूपम् अस्ति विशेषणम् अतः सन्दर्भम् अनुसृत्य तत्र कस्मिन् सन्दर्भे तत्र नियमः अस्ति एतदेव भवेत् इति अथवा अत्र तु विकल्पः इति मन्ये यथेच्छा तत्र कर्तुं शक्नुमः इति अतः किन्तु समीचीनप्रश्नः तत्र परः इति प्रथमे वाक्ये परः इति विशेषणमिति भवति किन्तु अन्तिमे वाक्ये विश्वरूपदर्शनात् परम् अर्जुनः भीतः तत्र तु अव्ययरूपम् इति स्वीकृतम् अस्ति
अधः अभ्यासः अस्ति महोदय तत्र तृतीयः अभ्यासः तत्र पदैः कः कस्मात् पूर्वः परः इति लिखत तत्र युधिष्ठिरः भीमः अर्जुनः नकुलः सहदेवः तस्य तत्र तु परः पूर्वः अपि
तत्र विशेषणमिति स्वीकृतमस्ति तत्र
स्वीकृतमस्ति
सत्यं भगिनि अतः तत्र सर्वदा पूर्वं परम् इति चिन्तनं तत् सरलं भवति, किन्तु अस्तु तत्र अन्यत् रूपमपि स्थापितुम् इच्छामि चेत् तत्र परः पूर्वः इति तादृशव्यवहारः अपि भवति. अस्तु तर्हि तत्र
महोदय तत्र अर्थः समान
अर्थः समानं कोऽपि अर्थभेदः नास्ति वा? अर्थभेदः नास्ति भगिनि,
अर्थभेदः नास्ति, अतः एतत् नियमं
कोऽपि नियमः तत्र नास्ति, विकल्पः अस्ति यथेच्छा तत्र परः वा परं वा इति वक्तुं शक्नुमः.
आम् महोदय, किन्तु तत्र पञ्चमविभक्ति एव भवति किल,
तत्र तस्य पूर्वं नियम तत्तु यदि पूर्वः भवति अथवा परं भव पूर्वः भवति अथवा पूर्वं भवति अथवा परः भवति अथवा परं भवति चिन्ता मास्तु, तस्य पूर्वपदस्य पञ्चमविभक्तिरूपमेव
भवेत्
एव भवेत्. सत्यं भगिनि सत्यं, हा अतः एव तत्र बुद्धेः परः अस्ति अपि विश्वरूपदर्शनात् परम् इति. अस्तु तर्हि इदानीं तत्र समयः अपि.
महोदय एकः प्रश्नः महोदय, उपपदविभक्ति प्रथमविभक्ति अपि च सप्तमे विभक्त्यां न भवति.
हा तत्र तत्र
न महोदय,
सत्यं भगिनि, किन्तु अत्र अत्र न न भवति, तत्र प्रायः न जानामि यदि तत्र तादृश किमपि अव्ययम् अस्ति वा कियत् येन तत्र सप्तमीविभक्तिरूपमपि भवितुम् अर्हति न वा इति, तत्र प्रायशः पुष्पादीक्षितायाः पुस्तकं दृष्ट्वा वक्तुं शक्नुमः तत्र. हा तत्र हा द्रष्टव्यम् अस्ति भगिनि, हा उत्तमप्रश्नः, दृष्ट्वा वदामि तत्र. हा भवती अपि पश्यतु तत्र पुष्पादीक्षिता भगिन्याः पुस्तकम् अस्ति तत्र, किमस्ति तत्र तत् बृहत् पुस्तकं नास्ति किन्तु तत्र तस्य तस्याः लघु पुस्तकम् अपि अस्ति तत्र, शीघ्रबोधकं संथिङ्ग् किमपि अस्ति. शीघ्रबोधव्याकरणम् इति अस्ति तत्र, एकः अध्यायः अस्ति तत्र विभक्तिः कारकविभक्तिः अपि उपपदविभक्तिः तत्र प्रत्येकविभक्तेः विभक्तेः किञ्चित् विवरणं दत्तमस्ति तत्र, पश्यामश्चेत् तत्र उपपदविभक्ति तत्र भवति न वा इति तत् किञ्चित् सा वदति तत्र, अहमपि तत् दृष्ट्वा वदामि, भवन्तः अपि तत्र पश्यन्तु. किन्तु उत्तमप्रश्नं भगिनि,
लक्ष्मणात् पूर्वः रामः, अत्र पूर्वः इति तदपि विशेषणं
विशेषणं भवति भगिनि, सत्यं, हा लक्ष्मणात् पूर्वः
पर
द्वयमपि पञ्चमी, पूर्वः अथवा पूर्वं परः अथवा परं, हा यद्यपि भवतु तत्र यत्किमपि भवतु तत्र, किन्तु तस्मात् पूर्वं पञ्चमी भवति. अस्तु तर्हि अस्तु
वदतु भगिनि. पूर्वं परम् इति उपयुज्यते यदा द्वे प्रसङ्गौ स्तः, परः उपयुज्यते यदा द्वे व्यक्ति स्तः.
प्रसङ्गः इति तादृश न तादृश नास्ति इति मन्ये भगिनि, तत्र किमपि नास्ति तत्र प्रसङ्गः वा अथवा पुरुषाः पुरुषः वा तत्र किमपि तादृश किमपि नास्ति भगिनि तत्र. यत्र पूर्वम् इति पदस्य प्रयोगः भवति तत्र परम् इति तस्य अपि प्रयोगः कर्तुं शक्नुमः, केवलं विपरीतं करणीयं तत्र, तावदेव तावदेव. अतः तत्र पूर्वमस्ति चेत् परमपि भवितुम् अर्हति तस्मिन्नेव सन्दर्भे.
महोदय एक युद्धात् युद्धं साङ्ख्यं ध्यानं गीतोपदेशं विश्वरूपदर्शनं एतत् सर्वे नपुंसकलिङ्गम् अस्ति, तत्कारणेन पूर्वं परम् अस्ति आयाति वा?
न
सम्भवं
न तादृशं नास्ति भगिनि. तत्र पश्यतु शान्तिः इति पदस्य लिङ्गं किं?
स्त्रीलिङ्गं.
स्त्रीलिङ्गं किन्तु तत्र परम् इति अस्ति, ध्यानात् परं शान्तिः प्राप्यते.
न अहं वदामि पञ्चमी विभक्त्यं प्रयुज्य
तत्र न तस्य कारणात् किमपि नास्ति. तत्र विशेषणम् अस्ति चेत् केवलं तत्र कर्तृपदस्य विशेषणं भवेत्, किन्तु तत्र शान्तिः प्राप्यते इति अस्ति. किन्तु तस्य
न अहं चिन्तयामि ध्यानात् परं ध्यानम् इति अस्ति.
अस्तु तादृशं किमपि नास्ति, तादृशं किमपि नास्ति, कोऽपि तादृशनियमः नास्ति. नास्ति भगिनि. अतः तत्र यत्र परमस्ति तत्र परः इति स्थापितुं शक्नुमः, विशेषणरूपं स्थापितुं शक्नुमः.
अशुद्धमस्ति, युद्धात् परम् एव शुद्धमस्ति. तत्कारणे किमपि
पुनः एकवारं वदतु भगिनि,
तेन कारणेन किं पदम् उपयुज्य
भगिनि पुनः वाक्यं वदतु. तत्र युद्धात् परं दुःखं भवति इति,
युद्धात् परं दुःखं भवति, परन्तु अहं न जानामि परं लिखन परं परं वा परः वा.
तत्र अस्तु भगिनि तत्र तत्र चिन्तयतु, तत्र विशेषणं रूपं कदा भवति, तत्र भेदः कदा भवति. यदि तत्र नपुंसकलिङ्गपदम् अस्ति चेत् तत्र दुःखम् इति नपुंसकलिङ्गे अस्ति.
आम् सत्यम्.
तत्र विशेषणं भवति चेत् परम् इति पदस्य रूपं किं भवति?
परं दुःखं सत्यं, परन्तु परं शान्तिः किम् आयाति? ज्ञानात् परं शान्तिः.
हा अतः एव वदामि भगिनि, तत्र परः परम् इति तत्र स्थापितम् अस्ति, तत् अव्ययमस्ति. शान्तिः इति स्त्रीलिङ्गे अस्ति, अतः तत्र विशेषणम् इति स्थापितुम् इदानीं भवती विशेषणम् इति स्थापितुम् इच्छति वा तत्र? यदि विशेषणरूपं स्थापितुम् इच्छति चेत् ध्यानात् परा शान्तिः प्राप्यते. परः न भवति किन्तु परा इति भवति, स्त्रीलिङ्गे भवति.
इति नपुंसकलिङ्गमस्ति महोदय.
दुःखं सत्यं भगिनि, दुःखम् इति नपुंसकलिङ्गमेव. इदानीं शान्तिः इति वार्ता.
अस्तु, तर्हि तत्रापि परम् इति परिवर्तनं न भवति इति अहं चिन्तयामि. परं शान्तिः
यदि विशेषणरूपेण स्वीकर्तुम् इच्छामः तत्र परा शान्तिः प्राप्यते इति रूपं भवति भगिनि. तत्र अर्थभेदः नास्ति भगिनि.
इत्युक्ते पराशान्ति इति न लेखितव्यं न महोदय, परं शान्ति इति सम्यक्.
तत्र अग्रे पश्यामः भगिनि, अग्रे पश्यामः, तत्र उदाहरणं पश्यामः. तत्र यत्र तत्र शुभदा भगिनी उक्तवती तत्र खलु, तत्र युधिष्ठिरः भीमात् पूर्वः, तत्र किं पूर्वम् इति एव वक्तव्यं वा? न, पूर्वः इति रूपम् अस्ति चेत् तत्र विशेषणमिति स्वीकृतं. विशेषणम् अस्ति चेत् तत्र स्त्रीलिङ्गे अपि कर्तुं शक्नुमः, नपुंसकलिङ्गे अपि कर्तुं शक्नुमः. किन्तु यत् भवती उक्तवती तत् समीचीनमेव. तत्र परं शान्तिः इति एव सर्वदा वदामः, किन्तु तत्र दोषः नास्ति इति मन्ये. तत्र विशेषणरूपेण वदामश्चेत् अपि दोषः नास्ति
महोदय. परः परं पूर्वं सर्वाणि अव्ययानि न महोदय?
अव्ययम् इति एकं रूपम् अस्ति भगिनि, अन्यत् रूपम् अस्ति विशेषणम्.
परन्तु वयं पठितवन्तः न महोदय, अव्ययानि इति पूर्वं प्रथम.
अस्तु सत्यं भगिनि, तत् अव्ययमपि तदपि सत्यं, विशेषणं तदपि सत्यं.
न महोदय, सदृशं त्रिषु लिङ्गेषु सर्वासु
सदृशः, तत्र सदृशः विशेषणं.
विभक्तिषु वचनेषु च सर्वेषु यन्न व्यति तद् अव्ययम् इति न पठितवन्तः न महोदय?
सत्यं भगिनि, सत्यं सत्यम्. अतः एकमेव पदं भगिनि, एकमेव पदं किन्तु तस्य रूपद्वयम् अस्ति. एकमस्ति अव्ययम्, एकमस्ति विशेषणम्. किञ्चित् तत्र
परन्तु अव्ययं किमपि रूपस्य परिवर्तनं न भवति न महोदय?
सत्यं भगिनि, सत्यं.
महोदय, तत्र बुद्धेः परः तत्र पुंलिङ्गे, युद्धात् परं तत्र नपुंसकलिङ्गे, ध्यानात् परम् इति अव्ययम् इति अहं मन्ये महोदय, त्रिविध उदाहरणानि दत्तम् इति. परम् इति अव्ययमपि अस्ति, परम् इति नपुंसकलिङ्गे अपि अस्ति, परः तु पुंलिङ्गे एव. तत्र त्रिषु वाक्येषु त्रिविधा उदाहरणानि दत्तानि इति अहं मन्ये महोदय.
सत्यं भगिनि, सत्यं. किन्तु तत्र उषा भगिन्याः क्लेशः न अपगतः इति मन्ये.
न महोदय, लिङ्गवचन अपि च विभक्तिभेदः न अस्ति न महोदय, परन्तु भवान् उक्तवान् विशेषणम् अस्ति इति.
इदानीं किं कुर्मः, समयः जातः, किन्तु प्रश्नः समीचीनः. अपि किमर्थं तत्र क्लेशः भवति तदपि अवगच्छामि, किन्तु अग्रिमे वर्गे तत्र पुनः तस्य विषये चर्चयामः. अस्तु तर्हि, तत्र किन्तु समीचीनप्रश्नः एव. अस्तु, वंशीसुधा भगिनी तत्र अन्ते प्रार्थनारूपेण शान्तिमन्त्रं वदति भगिनि.
आं महोदय. ॐ पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. ॐ गुरुभ्यो नमः.
धन्यवादः. 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 नमस्कारः. धन्यवादः.